अस्तु, यथा पूर्वम् अस्माभिः तत्र चतुर्थीविभक्तिः दृष्टा, अद्य तुमुन् रूपाणि पश्यामः। कोऽपि पठतु, रङ्गमहोदय।
महोदय, अहं गच्छामि, अहं विद्यालयं गच्छामि, अहं पठितुं विद्यालयं गच्छामि, त्वं किं कर्तुं विद्यालयं गच्छसि, किं कर्तुं, किमर्थं,
किं कर्तुं नाम किमर्थम् इति अर्थः,
किं कर्तुं, अहं पठितुं विद्यालयं गच्छामि,
अहं पठितुं विद्यालयं गच्छामि, अहं पठनाय विद्यालयं गच्छामि, पठनार्थं विद्यालयं गच्छामि, अहं पठितुं विद्यालयं गच्छामि, अहं पठनार्थं पठनाय पठितुं विद्यालयं गच्छामि। इदं तुमुन् रूपम् इति कथ्यते। तुमुन् रूपं, तुमुन् रूपाणि सर्वदापि अव्ययानि भवन्ति। यथा अहं पठितुं विद्यालयं गच्छामि, सः पठितुं विद्यालयं गच्छति, वयं पठितुं विद्यालयं गच्छामः, ते पठितुं विद्यालयं गच्छन्ति, ते पठितुं विद्यालयम् अगच्छन्। भविष्यकाले अपि पठितुम् इति एव रूपं भवति। इत्यस्मात् पठितुं तुमुन् रूपं, तुमुन् इदं रूपम् अव्ययम्। अत्र प्रश्नः नास्ति इति मन्ये। अस्ति वा कस्यापि प्रश्नः?
So this is the equivalent of to read, to do,
satyam,
to see kind of a thing.
Atam ki atra kim asti patitum, atra patanam kriya asti, astu patanam tatra kriya na vaktavyam prayah uddishta kriya asti, atra uddishta kriya, uddishta kriya yah tumun rupam bhavati, kimartham gachyati, patitum vidyalayam gachyati. किमर्थम् पर्पस् सत्यम्, उद्दिष्टक्रिया पर्पस् इति उच्यते खलु, सः एव अर्थः, सत्यम्। अनन्तरं
हेतुं सूचयति वा?
सत्यं सत्यं सत्यं, तस्मिन्नपि अर्थे स्वीकर्तुं शक्यते, किमर्थं गच्छति इति, किमर्थम् एवं कार्यं करोति। रविमहोदय, अग्रिमं वाक्यं पठतु।
किं महोदय, त्वं कुत्र गच्छसि? अहं भोजनालयं गच्छामि।
भोजनालयं,
भोजनालयं गच्छामि। त्वं किं कुत्र भोजनालयं, भोजनालयं गच्छसि?
किं कर्तुं,
त्वं किं कर्तुं भोजनालयं गच्छसि? अहं खादितुं, खादनार्थं भोजनालयं गच्छामि।
अहं खादितुं, खादनार्थं अथवा खादनाय भोजनालयं गच्छामि।
To eat.
Okay. खादितुं, खादनार्थम् अथवा खादनाय, खादनाय इति चतुर्थी विभक्तिः। खादितुं तुमुन् रूपं, खादनार्थम् अव्ययम्, तुमुन् एते द्वे अपि तत्र अव्यये एव, खादितुं, खादनार्थम्,
एनी वन ऑफ देम,
द्वयमपि अत्र अव्ययमेव।
कंटिन्यू एषा बालिका कुत्र गच्छति एषा बालिका क्रीडा क्रीडाक्षेत्रं गच्छति एषा बालिका किं कुत्र क्रीडाक्षेत्रं गच्छति
किं कर्तुं
किं कर्तुं क्रीडाक्षेत्रं गच्छति एषा बालिका खेलितुं खेलनार्थ क्रीडाक्षेत्रं गच्छति
अतः चतुर्थी विभक्ति उपयुज्य वाक्यं वदतु कृपया खेलितुं खेलनार्थं अथवा
खेलनाय
क्रीडाक्षेत्रं गच्छति
सा बालिका
एकनिमिषं पद्मजाभगिनी पठतु
सा बालिका किं कर्तुं स्नानागारं गच्छति सा बालिका स्नातुं स्नानार्थं स्नानाय स्नानागारं गच्छति
स्पष्टं किल इदं तुमुन् रूपाणि इति उच्यते सामान्यतया तुमुनुपे सर्वत्रापि इकारः इति भवति यथा वा पठति इत्यत्र पठितुं खादति खादितुं क्रीडति क्रीडितुम् एवं रीत्या भवन्ति सामान्यतया अस्तु पश्यामः अपराणि रूपं
सारी जस्ट् वन् क्वेश्चन् स्नानागारम् इस् स्नानगृहम् इस् इट् बात्रूम्
बात्रूम् तावदेव
ओके सो इट्स् नाट् गृहम् इस् इट् स्नानगृहम् इट् इस् स्नानागारम्
तत्र शौचालयं वा भवतु किमपि वा भवतु ऐ मीन् नवडेस् श्योर् यस् यस्
ओके fine we, because we, dining dining room we say
ridiculously used in a lot of so
okay fine okay smana garam so that word garam we can use for any room is it like that like smana garam is bathroom then dining room can be a bhojanagaram
probably not
kharagaram
no I think looks like garam cannot be used everywhere
it's not garam actually it's agaram actually agaram is a house
oh agaram means house is it agaram is food right
aharam
oh aharam is food okay
it's agaram actually
okay
so agaram is a house so you know snana agaram
okay. fine got it
maybe
yeah it's agraharam
okay agragaram
agraharam
अग्रहारम् अग्रहारं सत्यम् अग्रहारं तत् न
अग्रागारम्
अग्रहारं तत्र सुभाषिणी भगिनी अग्रे पठतु
बालकः आपणं गच्छति फलम् आनयति बालकः किमर्थम् आपणं गच्छति बालकः फलम् आनेतुम् आपणं गच्छति आनेतुम् सः मन्दिरं गच्छति
सारि वन् मिनिट् सो हियर् आनयति इट् इस् नो लाङ्गर् आनेतुम् इट् इस् आनेतुम् नौ
आनेतुम्
ओके इस् इट् बिकास् आफ् द न सौण्ड् देयर् आल् न सौण्ड् विल् बिकम् ने आर्
वेल् नो द धातु इस् नी हियर् दट् इस् वै इट् बिकम् ने
ओके सो दट् आनयति बिकम्स् नीत्वा That's why it is becoming ni, is it? I mean, no, mixing up things.
No, ni is a dhatu. Okay. Because it is ni, it became nitva.
Okay, okay.
You so said, you, what is you said it the other way around.
Huh? Okay.
What is the kimardham version of that? Anardham or anayanartham?
Anayanartham.
Okay.
Anayanaya.
Same way, if I want chaturthi, it is anayanaya. Okay.
Anayanaya, yes. Okay.
Shall I continue?
You read, yeah. Go ahead.
Saha mandiram gacchati, devam pashyati. Saha kimartam mandiram gacchati. Saha devam drishtum mandiram drashtum. Gacchati.
Drashtum.
Mandiram gacchati.
That chiturthi vibhakti mupayajya vakyam adatu? Shakyate chet.
Saha devam drishyaya mandiram gacchati.
दर्शनाय अस्तु भवतु नाम अस्तु
दर्शनाय
दर्शनं भवति तत्र देवदर्शनाय
दर्शनाय मन्दिरं गच्छति
अनन्तरं वल्लीभगिनी पठतु
अहम जलम पातुम इच्छामि सह पद
पदार्थम
पदार्थम जलम आनेतुम गच्छति पदार्थम
मदर्थम
मदर्थम
मदर्थम फॉर मी मह्यम इति अर्थः मह्यम
कृष्णः
कृपणः
कृपणः दातुं न इच्छति
कृपणः कृपणः नाम
स्टिंजी पर्सन
कृपणः दातुं न इच्छति ददाति दातुं आनयति आनेतुं पिबति पातुं पिबति आनयति ददाति पिबति आनयति ददाति
सो यच्छति विल बिकम यातुं
यच्छति वा
या फॉर ददाति वी से यच्छति नो
यस यच्छति हैंग ऑन लेट्स सी व्हाट्स फॉर यच्छति यच्छति आई ऑनेस्टली हैवंट यूज्ड इट एनी टाइम Maybe yantum actually. Yachati is yantum.
What is madartham?
Yeah, that's what I'm
saying. Madartham nama mahyam.
For me.
For me.
For me. Okay, Shekhar, I didn't understand the last one. Krupanaha datum na ichati means it does not give anything or that's what it means?
No, no. What does ichati mean?
Ichati is to give. दातुं न इच्छति ओके ओ ही डजंट लाइक टू गिव
ओके अम्बा भगिनी अनन्तरं पठतु
अहं संस्कृतं सम्यक् ज्ञातुम् इच्छामि अहं संस्कृतं शब्दं लेखितुम् इच्छामि अहं संस्कृतं शब्दं वक्तुम् इच्छामि
एवं जानाति लिखति वदति वक्तुं लेखितुं ज्ञातुं स्पष्टं किल एतावता अत्र हिन्दीभाषायाम् अस्ति किमपि न कर्तुं शक्यते भवतु नाम ये हिन्दीभाषां जानन्ति तेषां लाभाय शंकर महोदय पठतु
ओके सः पठतु शक्नोति
पठितुं
सॉरी सः पठितुं शक्नोति पठ सकता
नो नो डोंट इन हिंदी जस्ट संस्कृत वन इज गुड
या गॉट इट ओके सः पठितुं शक्नोति सह पठितुम् इच्छति सह पठितुं लगति सह पठितुं गच्छति सह पठितुं जानाति सह पठितुं न ददाति
अस्तु
एक्चुअली आई हैड अ क्वेश्चन ऑन द प्रीवियस वन वक्तुं व्हाट वाज द वदति ओके
वदति वक्तुम्
इज दैट लास्ट सेंटेंस लाइक द हिंदी वर्न सेज ही डजंट लेट देम रीड और समथिंग लाइक दैट कैन यू प्लीज
मूव इवन आई हैड डाउट इन दैट लिटरल ट्रांसलेशन
दैट
इज गिविंग
सत्यम कोऽपि तथा न वदति भवतु लिटरल ट्रांसलेशन अस्ति सत्यम सत्यम अपि च अत्र वदति इति अस्ति किल तत्र वदति इति अहं वदामि किन्तु वक्तुं नाम तत्र धातु तत्र वच् इति धातुः अस्ति वक्ति इत्येव रूपमस्ति किन्तु कोऽपि तथा न वदति अधुना वदति इत्येव स्वीकरोतु ओके धातु वि से वदति रैट् वदति द धातु इस् डिफ्रेण्ट् वद् इस् धातु in vaktum the dhatu is vach. Technically for vadati it will be vaditum, for vakti it will be vaktum, but the meaning is the same. Okay.
Okay.
Like, okay, let me put it vakti here. No one uses vakti. For the most part, everyone uses vadati. So you get the idea. That's it.
Yep.
Atta spashta, lagati means what? Eh?
Lagati.
Lagati.
Lagati man, we,
so
you
know,
man lagta hai, you say in Hindi, right? Something like that. Patitum lagati. Something that he
feel
puts into effect.
Yeah, feel for that.
No, not feel. He puts it into effect actually.
Like started.
Something like that. Yeah.
Yes. Shekharji, tum pratyay mein I have a doubt. Upavishati, how that will change?
Upaveshtum. Yeah, we will
pick up utish, some of this. Utishta.
Utthatum. Okay. Utthatum. We'll do all that. Just, yeah. We'll do all that. Just give me a minute. Etavata prashna santiva?
Lagati.
Kimiti?
Lagati.
Lagati, like I just said, right? Hang on. Maybe the dhata kosha has a different meaning for that. Hang on 1 minute.
First time I'm hearing this word.
Lagati means to come in contact, to approach.
Okay.
Lagati.
We can say
Upagachati also for that. Kimiti
Prashnaha kaha? Upagachati is lagati.
Oh, not like that. No. At least I haven't seen any prayoga like something like that.
Sanibam gachati?
No. You know, you're showing interest in doing that. That's it.
Oh.
You're putting your the action just started or something like that. Asto. Drishyate vam screen adhuna?
Drishyate. Yep.
Asto, uttamam. Atra kanichana tumun rupani santi. Aparase Vidya Bhagini? Asti va?
Asti.
Asmi.
Vayam. Asmi. Vayam. Nartitum. Icchamaha.
Atra prashnaha kaha? Ekanisham. Atra prashnaha kaha?
Khaditum icchati.
No. Atra nartitum icchamaha. Icchatra. Uttamam. Kim kartum icchamaha. Uttamam.
Saha khaditum icchati. Te graham kim kartum icchata.
Punaha vadate ekvaram.
Rama.
Punaha vadate te.
Yuyam kim krudatu kartum icchata.
Ichata
Rama Prangane Kriditum Ichati.
Ekanisham. Pariat Dhanyavada. Dhanyavada.
Third one, Mahade.
Kimiti?
Third one.
Gantum. Gantum Ichanti.
Te Gruham Gantum Ichanti. Gachati, gam dhatu nama gachati, gantu. Tatra. Natajan Mohade, anatam karato?
Yeah. Deveshah, chalachitram, drush, Okay.
Drashtum.
Drashtum. Drashtum.
Drashtum ichati. Deveshah. Kim chalachitram. Kim kurtum ichati.
No. Deveshah. Kim drashtum ichati. Deveshah chalachitram drashtum ichati.
Okay. Kim drashtum ichati. Okay. Sah. Asane.
उपवेष्टुम्
इच्छति
प्रश्नः
सः उपवेष्टुं कुत्र इच्छति आसने चेर् रैट्
सत्यं सः कुत्र उपवेष्टुम् इच्छति सः
कुत्र उपवेष्टुम् इच्छति ओके फैन्
यदा कदापि भवतु तत्र इट्स फील्स लाइक यू नो यू लाइक ट्रांसलेटिंग इट फ्रॉम इंग्लिश सो
ओके
सो व्हाई कांट यू से सः आसने किं कर्तुम् इच्छति व्हाट वुड यू वांट टू डू विथ योर सीट
नो आसनः नाम कः अर्थः अत्र
द सीट राइट चेयर सीट So you could ask the question differently, right?
Absolutely.
What did you... Okay.
Sahasane kim kartum ichchati. Sahasane upaveshtum ichchati.
Yep. Thank you.
Okay. Sah shlokam... where is that? Shravayitum ichchati. Shravayitum, right? That's how I read it. Okay. Saha shlokam shravayitum ichati. Saha kim shravayitum ichati. Saha shlokam kim kurtum ichati.
Hey, saha shlokam shravayitum ichati tava deva.
Yeah. Mm. Okay, fine. Okay, but what does he want to do with the shloka? He wants to listen. So how do I frame the sentence? I can say saha shlokam kim kurtum ichati, right? Whether to read, write, see.
Saha kim shravayitum ichati, saha shlokam shravayitum ichati. Makes sense actually. Saha right. Shlokam kim kartum. That, you know, that usage is very weird actually.
Okay, fine. Okay, I think I'm just trying to apply the same thing. Okay.
Saha shru dhatu is the dhatu for sha. Shravaya?
No. So this is called the nich form. We'll get into this later. Like patati, pathayati. Patati, patayati.
Uh-huh.
This is different actually. Shravayati.
Oh,
you know these to listen. Shravayati is, you know, to? What does Shravayati mean?
To listen.
Shravanam,
right?
Shravanam.
To listen.
Karoti.
No, what a Shravayati.
Make him listen. Make him listen.
Exactly.
Okay.
Shravayati is more like to narrate actually, right? Katham Shravayati. Okay. Shlokam Shravayati means, you know, you're saying the shloka, someone else is actually listening. Make someone else hear. That's
listen.
It.
Okay.
Yeah, sure.
Okay. Saha.
When you are doing itself, then it becomes mananam.
Mananam.
Okay. Saha. Geetam. Gatum ichati.
Saha geetam. Gatum ichati.
Gatum ichati. Saha. Kim gatum ichati. सह वस्त्राणि प्रक्षालय प्रक्षालयितुम् इच्छति सः
किं गातुम् इच्छति सः गीतं गातुम् इच्छति ओके
करेक्ट् या सः वस्त्राणि प्रक्षालयितुम् इच्छति सः किं प्रक्षालयितुम् इच्छति
सः सॉरी किं यार कानि
It's Kim, right?
Kim, Kani is also good. Kim is also good. Kim Prakshalayitum Ichchati. Sure. both are correct.
Oh, this is vastrani. Okay, fine. Okay, got it. Saha samacharam. Shrotum ichati. Saha kim shrotum ichati. Saha uttaram nyanitum, right? Nyatum ichati. Saha kim nyatum ichati. Okay, everything becomes nicely.
स्पष्टं किल एतावत् इदं तु गृहे कुर्वन्तु इदम् अधुना एकां कथां पठामः एकनिमिषम् सर्वे द्रष्टुं शक्नुवन्ति किल रङ्गमहोदय
एकदा केचन चोराः चौर्यं कर्तुं कार्यचित् धनिकस्य कस्यचित् धनिकस्य गृहं प्रस्थितवन्तः
एकदा वाक्यं तु सर्वैः अवगतं वा इदं वाक्यं
अस्तु महोदय
चोराः
राइट ऐ अंडरस्टुड सम ऑफ इट बट केचन and the last word prasthitavantah those things I didn't understand
prasthitavantah nam atra depart iti arthah
oh okay
repeat that again
prasthitavantah depart iti arthah leave
okay
na prasthitavantah kechana kaschana balakah asti kechana choraha santi kaschana केचन कश्चन कः बहुवचनं किम् अस्ति के कः पदस्य बहुवचनं के किल तथैव कश्चन केचन कश्चन नाम सम्बन्
समवन् ओ ओके
केचन बहुवचनम् अस्ति
ओके ओके सो द
देयर वर सम पॉइंट टाइम दे वाज अ थीफ समथिंग लाइक
देयर वर सम थीव्स
या
ओके
केचन चोराः चौर्यं जानन्ति इति मन्ये चौर्यं कर्तुं यथा कः कश्चन केचन कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः
इस् बहुवचनं रैट्
बहुवचनं सत्यं
चोराः रैट्
बिकास् चोराः
ओ अस्तु अस्तु
कस्यचित् संवंस धनिकस्य कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः
ओके सम रैंडम रिच पर्सन
रैंडम इति न या समवन वी डोंट नो
हू सम ओके फाइन ओके
लाइक यू से यू नो वंस अपॉन अ टाइम देयर वाज अ किंग यू नेवर से एकः राजा आसीत् देयर वाज अ किंग कश्चन राजा यू डोंट नो हू दैट इज एकः मींस ओनली वन किंग कश्चन सम किंग
ओके
स्पष्टं वेतावता
या
अनन्तरं पठतु महोदय रङ्गमहोदय
मार्गमध्ये कश्चित् पुरुषः अमिलत् सः आसीत्
कृषकायः माध्यमर्गे कश्चित् पुरुषः पद्मजा भगिनी कश्चित् कः प्लस् चित् कश्चित् कश्चन कश्चित् दे मीन् द सेम् अर्धभेदः नास्ति
ओके
केचन केचित् कश्चन कश्चित्
Okay. So this is the same thing like the kadachit that we say, is it? Sometimes.
Satyam.
Ah, okay. So the chit is adding the, some kind of a variation. Okay.
Mm-hmm. Okay.
So Mahodaya, kadachit and kadapi, like the api prayogam, how it makes a difference?
Punaha aprichato?
We are saying kadapi, right? Sometimes. So kadachit and kadapi, what's the difference?
Kadapi nama anytime iti artha.
Okay. So api comes, then it's anytime.
Kadapi nama anytime. Kadachit nama sometime.
Dhanyavada mahodaya.
Asto. Saha asi krushakayaha. Kayaha nama shariram iti artha. Kayaha nama shariram. So body iti artha. Prayaha. Krushaha. Krushaha nama?
Lean.
Ah. Adhuna spashtam kila? Lean. Saha asit krushakayaha. Spashtam vaita vata?
Sorry, I didn't get the last one. Krushakayaha.
Krushaha nama lean iti artha. Kayaha. Kayaha nama?
Shariram.
Shariram, body iti artaha. Saha krushakayaha. Madhya marghe, madhya marghe, margha madhye, kaschit purushaha amilat, saha asit krushakayaha.
So that person is leaning.
Lean.
Yeah.
Satyam. Amma bhagini, anantam patatu.
Bhavan kaha, bhavan kutra gantum icchati, iti te chorah tam apruchan.
Spashtam idam.
Aham api bhavahashah.
Bhavadrishah.
Bhavadrishah. Aham api bhavadrishah eva. Iti pratyuttaram avadat saha purushah. Astu kim bhavan api chauryartham asmabihi saha agantum icchati. Asmakam ganameva praveshtum icchati kim agachatu militva eva gachamaha. Iti uktva chorah tamapi atmana saha anayan.
Spashtam vaitavata prashna santiva kutrapi.
Bhavadrushaha
nama someone like you.
Oh, okay. Bhavadrushaha. Okay.
And ahamati is I also.
I also.
Bhavadrushaha, how to split the word bhavadrushaha? How? It's a single word as such.
Single word, satyam.
Ganameva praveshtum.
Atra choraha tesham ekaha ganaha bhavati kila. Ganaha nama group iti artha. Spashtam adhuna? Ganaha iti padasya artha avagataha va? Astu spashtam asti iti dhiya agre sarami. Antram Padmaja bhagini patatu.
Ratri kalaha gadandakaraha. Ratri kalaha gadandakaraha sarvatra prasutaha asit.
Prasrutaha
asit. Choraha dhanikasya gruha samipam agachan.
Athava agachan. Athava agachan eva samipatra. Gruha samipam agachan.
Yeshah chauryam kartum samartaha asti. Uta naiti spashtataya na jnayate. Ataha eshaha rakshanakaryam karotu. Chaurya samaye kopi agataha. Kopi agataha chet asman suchayitum shankanadam karotu eshaha. Iti achintayante.
Spashtamastra etavata?
Kind of need to go through once more. And again, the Gadandhakara has sarvatra, those things don't understand what is it.
Gadandhakara has God, is it?
Dark, very dark.
Oh, the security guard.
Dark everywhere.
No.
It is dark everywhere.
Dark everywhere.
Andhakara.
Oh my God, who's that security guard? No.
I heard it as God, so... Oh, okay, you mean God, yeah. God only, is it? Okay.
Oh my God, okay. God andhakaraha. Okay. Sarvatra prasrutaha asit. Prasrutaha. Now, it is spread iti artaha. Everywhere. It is dark everywhere iti vadama kila. Sarvatra prasrutaha asit. Yathava aduna kimiti kasyapi kirtihi sarvatra prasruta bhavati kirtihi nama
fame.
Kirtihi sarvatra prasruta bhavati gadhandhakarah sarvatra prasrutah asit. Pashtam kila kirtihi prasruta andhakaraha prasrutaha choraha dhanikasya gruha samipam agachan idam spashtameva. Esha namakaha yah nutanah agataha purushaha asit kila atra kaschana purushaha nutanah yah asti saha chauryam kartum samarthaha asti va nava asti uta nama or iti artaha asti uta na iti spashtataya spashtata trutiya vibhaktihi spashtataya na jnayate ataha esaha rakshana karyam karotu.
That means he doesn't know that he doesn't know that he works in rakshana karya karoti. I mean, he's a police or something, you know.
Imbho, no,
you protect.
Satyam. He may not be skilled enough for that, so they're going to make him watch.
Satyam.
So, saha is the krishakaya here?
Satyam. Eshaha nama krushakayaha. Eshaha krushakayaha. Chauryam kartum samartaha astiva nava iti. Spashtataya na janimahavayam. Ataha eshaha nama krushakayaha. Rakshanakaryam. Rakshanakaryam na guarding iti artahatra. Rakshanakaryam karotu. Chaurya samaye kopi agataha chet. Yadi kopai agachati. Vayantu chauryam kurmahakila anyatra. Gruhe vayam chauryam kurmaha. Tadanim yedi kaschana agataha chet asman suchayitum suchayati suchayitum shankanadam karotu eshaha.
Okay.
Shankanadam karotu iti.
Kasujavka.
So, Mahodaya?
Everybody
be on mute, please.
Mahodaya, kopi here means someone, and kaschana is also someone.
Satyam.
So it is interchangeable.
Satyam. Atra asmi sandarbe satyam.
Astu.
And every time we write kopi, do we have to use that sandhi indicator?
Yes.
Actually, one sentence I didn't understand. Asti utana iti spashtayata nyayate.
Eshaha samartaha asti uta or. Samartaha asti uta na. Astu. Eshaha samartaha asti utana iti vishayaha spashtataya na jnayate.
Can I explain in Telugu? Is that a Telugu person asking the question?
Na, saha
Tamil. Tamil, sorry.
Is he capable of stealing or not? That's what it means.
Satyam.
Okay. Okay. Thank you.
Spashtam kila edavata? Amma bhagini anantaram.
Spashtam.
Evam te choraha tam tatraiva statum uktva chauryartam antaha agachan. Kim chat kala kalanantaram.
Kinchit kalanantaram.
Kinchit kalanantaram. Eshah shankanadam kartum arambhavan.
Arabdhavan.
Arabdhavan. Te chorah anukshanam bahi agachan. Tasya hastam grihitva grihitva te dhuram gatva tam apruchan. Bhavan kimartam shankanadam akarot kaha asit tatra iti.
Spashtam asti iti bhavayami. अस्तु अनन्तरं कौसल्या भगिनी भवती पठतु.
तदा सः पुरुषः अवदत् अहं प्रभुं श्रीरामचन्द्रम् अपश्यम्. श्रीरामचन्द्रः भवतां चौर्यं द्रष्टुं शक्नोति इति मत्वा अहम् अनुक्षणं शङ्कनादम् अकरवम् इति अवदत्. किं भवान् अस्तु किं भवान् रामचन्द्रम् अपश्यत्? सः कुत्र आसीत्? वयं तं द्रष्टुं न अशक्नुम एव. कुत्र गतः सः इति चोराः अपृच्छन्.
स्पष्टं वा एतावता?
Yeah, they're asking where is he? Right? Where did you see him?
Matva is meaning.
Matva chinta yitva iti artha. Chinta yitva iti artha.
Bhavatam kaha rupa?
Bhavatam bhavat bhavan bhavataha. Shashti ekavachanam bhavataha. Shashti bahuvachanam bhavatam. अस्तु शङ्कर महोदय अग्रे पठतु.
द्रष्टुं शक्नोति इति मत्वा अहम् अनुक्षणम् ओके किं भवान् रामचन्द्रम् अपश्यत्? सः कुत्र आसीत्? वयं तं द्रष्टुं न अशक्नुम् एव. कुत्र गतः सः इति चोरा अपृच्छन् चोराः अपृच्छन्. सः सः कुत्रापि न गतः. तस्य स्वरूपं वर्णनातीतं सर्वत्र अपि सः अस्ति एव इति उक्तवान् सः पुरुषः. तस्य कथनं श्रुत्वा ते चोराः एषः कश्चन महापुरुषः इति ज्ञात्वा तस्य पादयोः अपतन् साष्टाङ्ग नमस्कृतवन्तः च. तस्य पुरुषस्य नाम तुलसीदासः इति. सः एव अग्रे हिन्दीभाषायां रामायणम् अशचेत्
अरचयत्
अरचयत् अरचयत् एतत् तुलसीरामायणम् इत्येव प्रसिद्धम् अस्ति.
कथा स्पष्टा वा?
Ashtam.
Yeah, I need to read a couple of more times.
No, Saram Shaha Vakataha Vatavate.
Yeah.
Saha Kutrapi Na Gataha Tasya Swarupam Varnanatitam.
Varnanatitam. Varnana Atitam. Beyond Varnanam. Varnanam nava description. Varnanatitam. Varnana description. Atitam. Varnanatitam.
Dhanyavadam, Mahodaya.
Anyesham prashnah santi va?
Kopi nasti, Mahodaya.
Uttam. Idamapi aham aropayishyami. Sarve krupaya pathantu. Tumun rupani spashtani kila?
Spashtam, sulabham api. Yes.
Anyesham kagati hi?
So, like sometimes there are lot of binna hasti, right? So, how do we like for the other agatya, like the tumun one? I mean, what is that? Agya? Do you have any? Rules for that?
No, that's it.
No. Avyaya, right?
It's an avyayam, that's it. No special rules for that.
No, when it's changing, right, the dhatu, so we...
As in, you know, when you get the ekara, like kretum, etum kind thing. Yeah, so when the dhatu has ikara, like ni is the dhatu, which becomes nayati. It becomes ne, na, na, neetum. Kri, kreenati. It becomes kretum. Okay. For the most part, it will be something like pa is the dhatu, patum. You add the tumun part to the dhatu, that's it.
Okay.
But if the dhatu has an ekara in the end, it becomes ekara. Ni, neetum. Like shru, ukara becomes okara. This we have seen everywhere. Right. Shru, shrotum. Gnya is a dhatu, janati, gnya, gnyatum. Kru is a dhatu, that becomes ar all the time, kartum. Like kru is a dhatu, it becomes karoti, right? Kar, karoti. So kartum. Milati, melitum. Evam ritya. Grunhati, krahitum.
Vadati becomes vaktum, right?
It's actually vaditum only. Vadati becomes vaditum. Vakti is different dhatu. That is vaktum. Vaditi actually is vadati becomes vaditum only.
Okay.
Okay. Look at a few more forms. You'll get an idea. We'll do again tumun next week as well. So I'll upload that sheet. Please do that this week. If you have any questions, you know, we can definitely take a look at that next week as well.
Okay, Mahodaya.
Ravi Mahodaya, are you still there or? Okay, never mind. Gata Saptahe. Kim Jatam Gata Saptahe, Kopi Smarati Va? Nalopakshane. Kim jatam kata sapta hai?
We have to do sixth one, Mahodaya.
Sixth one krutam asti. Brahmarshi damanaha agataha kata sapta hai.
No, actually saptami. We have to do saptami one.
Saptamam.
Saptamam.
Saptama shlokaha saptamam.
Aham
karoto. Sapatama shlokam patato. Gata saptahe kim jatam? Anyone remember what happened last week? in the Kavya? Where were we?
We were on the sixth one.
No, that I know. What happened in the story?
Oh.
Kopi Smarati Va?
Bhima was childless, but he was very valorous. So, meanwhile, Rishi Muni had approached him.
Yeah, what's his name?
Kardamanaha.
No, Damanaha.
Damanaha.
Damanaha. Agataha. Astu. Agre bhavateva karato, Amba Bhagini.
Tam sa bhimaha prajakamaha toshayamasa dharmavit. Mahishya saha rajendra satkarena sarvar
Suvarchasam. Adana padachedam karoto.
Tam saha tamam. Saha bhimaha prajakamaha. He likes his subjects.
Adana anantram arthan paschama. Adho to kevalam padachedam karoto. Tam saha
saha bhimaha prajakamaha. Toshaya Masa Dharmavit.
Okay. Anantaram.
Mahishya.
Shimatam Yaganasham. Astu. Mahishya.
Saha Rajendra.
Rajendra
satkarena
satkarena
suvarchasam.
So we cannot split Raja Indraha like that?
No.
Okay.
Rajendra is one word. Okay. So this is our shloka now. Asto. Anmayin karoto. अत्र क्रियापदं कुत्र अस्ति
तेष्यामास
आ
I mean तेषयामास
तोषयामास
तोष
तोषयामास कीदृश पदम अस्ति इदं
दैट इज
लकार अस्ति इदं पदम
लुंग लुंग I mean
लिट लिट लकारः अस्य प्रयोगः कुत्र भवति लिट् लकारस्य प्रयोगः कुत्र भवति
रिमोट पास्ट
परोक्षः
उत्तमं परोक्षे लिट् तोषयामास कः अर्थः तोषयामास नाम
मेक्स हैप्पी अदर्स
ही वाज हैप्पी
नो
ही मेक्स अदर्स हैप्पी
तोषयामास लटि रूपं किं स्यात् लटि नाम लट्लकारः
तोषयति
उत्तमं तोषयति तोषयतः तोषयन्ति एवं रीत्या रूपाणि भवन्ति लिट्लकारे तोषयामास इदं रूपम् अधुना कः तोषयामास
सः भीमः
तोषयामास सह भीमः प्रजाकामः तोषयामास सह भीमः प्रजाकामः धर्मवित् तोषयामास एतानि सर्वाणि अपि पदानि भीममुद्दिश्य एव सन्ति सह भीमः धर्मवित् अस्ति सह भीमः प्रजाकामः अस्ति सह भीमः प्रजाकामः धर्मवित् तोषयामास एतावत् स्पष्टं किल
राजेन्द्रः अपि
अनन्तरं पश्यामः सत्यं तदपि अस्ति सत्यं
सः महिष्या सह इस् गोयिङ्ग् समवेर्
सः भीमः राजेन्द्रः प्रजाकामः धर्मवित् तोषयामास कं तोषयामास कं सुवर्चसं तोषयामास
What is suvarchasam, Mahodaya?
Vadam, ekanisham. Suvarchasam toshayamasa. Varchas namakahardaha?
Lascha.
వర్చస్. తెలుగు భాష అంతా అత్యంతం ప్రసిద్ధం ఇదం పదం. అన్యాసు భాషాసు నజానే వర్చస్ ఇది. అస్తు శోభనం వర్చః యస్య సః సువర్చః. శోభనం బ్యూటిఫుల్ ఎక్సలెంట్ ఇది అర్థ. శోభనం వర్చః యస్య సః సువర్చః. ద వన్ హూ హ్యాజ్ బ్యూటిఫుల్ లస్టర్. సువర్చః సః తం
బ్యూటిఫుల్ గ్లో.
సత్యం. తం సువర్చసం అత్ర 2.1 తోషయామాస. కథం తోషయామాస? సత్కారేణ. సత్కారేణ సత్కారం కరోతి ఇది వదామః కిల. సత్కారేణ తోషయామాస.
గుడ్ డీడ్స్ సత్కారం.
సా సత్ గుడ్ డీడ్స్ ఇది నా యునో యథా అతిథయః గృహం ప్రతి ఆగచ్చంతి సత్కారం కురుమః కిల.
ఓకే మహోదయ.
సత్కారేణ తోషయామాస. కయా సహ? మహిష్యా సహ. మహిషీ నమ రాణి ఇతి అర్థః. క్వీన్. మహిష్యా సహ సహ భీమః ప్రజాకామః. సహ రాజేంద్రః భీమః ప్రజాకామః ధర్మవిత్. మహిష్యా సహ సత్కారేణ తం సువర్చసం తోషయామాస.
That when 1.1, 3.1 comes, I don't see difficulty, Mahodaya. But when the 2.1 comes, I get kind of lost.
Are so you still lost?
Tam means he.
No, don't
think of he.
Okay. Pasha, Devam Pasha. Saha Bala Kaha. Kahar Daha? వల్లి భగిని. అస్తు సహ దట్ బాయ్ నాట్ హీ. దట్ ఇది అర్థ సహ నామ.
దట్ బాయ్.
తం పశ్యామి కహ అర్థ?
ఐఎమ్ లుకింగ్ అట్ హిమ్. అట్ హిమ్ ఇస్ తం.
తథైవ అత్రాపి సహ దమనః తం తోషయామాస.
దట్ మీన్స్ హౌ వుడ్ ఐ సే ఇట్ ఇన్ like anybody can help me in Tamil? Avanai
avanai santosha padutigiren. Avanai santosha padutigiran.
Oh,
so tam here is the is a muni, right? The sage. The tam is referring to the sage. Okay.
Tam suvarcham that
suvarchasam.
Tam suvarcham
suvarchasam not suvarchasam.
Suvarchasam
tam suvarchasam toshayamasa masa.
Toshayamasa is the kriyapadam.
Kriyapadam.
Kaha toshayamasa? Bhimaha toshayamasa. Tam toshayamasa? Whom he is honoring? Suvarchasam tam toshayamasa.
Okay. Dhanyavada.
Shekhaji, I lost. What is the toshayamasa? I don't know. I think because I got...
Making others happy.
Making others happy? Okay. Thank you.
Yeah.
అత్ర పశ్యతు. సో ఇన్ దిస్ వన్ లైన్ రైట్ వి హావ్ సో ఇట్ సేస్ అ లాట్ ఆఫ్ థింగ్స్. సహ భీమః రాజేంద్రః ప్రజాకామః. ఓకే, వాట్ ఇస్ బాట్ ఇస్ ప్రజాకామః మీన్?
వన్ హూ లవ్స్
హి లైక్స్ హిస్ పీపుల్.
నో నో నో
నో నో హి వాంట్స్ అ చైల్డ్.
ప్రజాకామః.
ఓకే ఓకే
ఓకే. ధర్మవిత్. ధర్మవిత్ నామ ధర్మవిత్. ధర్మం వేత్తి ధర్మవిత్. సో సి దట్ ఈస్ ద బ్యూటీ ఆఫ్ దిస్ లిటరేచర్ రైట్. సి వి హావ్ ఆల్ దిస్ అబ్జెక్టివ్స్. సో ఇట్ ఇట్ డిస్క్రైబ్స్ అ లాట్ అబౌట్ ద కింగ్ దేర్. సో వెన్ యూ వెన్ వీ హ్యావ్ అ అతిథి యునో హోమ్ ధర్మవిత్ వుడ్ డు తోషయామాస. వుడ్ తోషయామాస సహ ధర్మవిత్ తోషయామాస. ఆల్ దీస్ అబ్జెక్టివ్స్ యునో దే టాక్ లాట్ అబౌట్ ద కల్చర్ ఇన్ జనరల్. ఓన్లీ ధర్మవిత్ వుడ్ యాక్చువల్లీ డూ దిస్. అదర్స్ ప్రాబ్లీ వుడెంట్. ప్రజాకామః ధర్మవిత్ సువర్చసం. సో ఇట్ ఈస్ డిస్క్రైబింగ్ యునో ద క్వాలిటీస్ ద ముని వుడ్ హ్యావ్ యాక్చువల్లీ. Suvarchasam. Suvarchaha. Shamatam. Suvarchaha. Suvarchasam tam. Damanam. Rishim. Toshayamasa. Etavata spashtam va?
Astu mahadaya.
Spashtam kila idam?
Sorry, Shekhar. Satkarena, I missed it. Wow, what is Satkarena? What did he say?
Satkaraha. Nama? Hospitability vadama kila.
Oh, okay, fine.
Honoring
okay,
someone.
Okay, fine.
Okay. Sorry, what is the subject? Who is the subject that is being referred to in this verse? I mean, yeah. Not subject, the object.
Huh. Like.
Object is a sage.
So, sage so what's is the previous slokam, is it?
No, no, hang on. First and foremost, see here. It says tam here, right? Tam isn't Dvitiya Bhakti here. You know that part, right?
Yeah.
Okay. When you're using a pronoun here, okay, you need to look at whom that is actually referring to. In the previous sloka, it said damanaha agataha. So tam here refers to the damanaha.
Okay, thank you.
Okay. Spashtam etavata?
Spashtam.
Spashtam iti aham agre agachami. Astu. So to understand this shloka, we need the next two. Because if you read one shloka, it wouldn't make any sense. So you have to read two shlokas. Okay. Karoti adhuna. Kaha karoti? Subhashini bhagini, karoti va?
Astu mahode. Tasya prasanno damanah sabharyaya varam datau. Kanya ratnam kumarancha trinudhara mahayashaha.
Trinudhara mahayashaha iti bhavetatra. Mahayashaha na kshamitam doshaha.
Mahayashaha. Trinudhara mahayashaha.
Mahayashaha.
Damayantim damam dantam. Damanam cha suvarchasam. Upapannan gunaihi sarvaihi bhiman bhima parakraman.
Avachedam?
Tasya. Prasannaha damanaha.
Sahabharyaya ekameva padam. Sahabharyaya kshamyatam. Sahabharyaya ekameva padam.
Sahabharyaya varam dadau. Kanyaratnam.
Kanyaratnam kumaramsha. Trinudharan mahayashaha.
Kanyaratnan kumaran cha
trini udharaya mahayashaha.
Udharan
mahayashaha. Damayantim damam dantam. Damanam cha suvarchasam.
Astu.
Upapannane gunaihi sarvaihi bhimane bhimaha parakramane.
Uttama. Kimiti? Astu. Adana, kriyapadam kutra asti?
Dadau
nama?
Dattavan. Adada.
Adadat. Atata litla kare asti. Atra litla kare asti. Astu. Kaha dadau?
Varam dadau.
Dana, kaha.
Damanaha.
Damanaha varam dadau.
ददौ
कथं भूतः दमनः वरं वरं ददौ कथं भूतः दमनः वरं ददौ प्रसन्नः दमनः प्रसन्नः कथं भूतः दमनः प्रसन्नः इज एन एडजेक्टिव टू दमनः हियर किमर्थं सः प्रसन्नः अस्ति पूर्वस्मिन् श्लोके भीमः दमनं तोषयामास तेन प्रसन्नः दमनः तेन प्रसन्नः दमनः वरं ददौ प्रसन्नः इति पदस्य अर्थं सर्वे अपि जानन्ति इति भावयामि अत्र एवरीवन
हैप्पी प्रसन्नः
ग्लैड ग्लैड और हैप्पी और सैटिस्फाइड सैटिस्फाइड दमनः
यस कथं भूतः दमनः प्रसन्नः दमन दमनः
वरं भूतः भूतः मींस व्हाट
कथं भूतः हां
भूतः
means what I hate to translate this.
So what kind of bhavadamana?
Yeah.
Hmm.
Katham okay. Bhutaha. What kind? Tavadeva. Katham bhutaha damanaha varam dadau. Prasannaha damanaha varam dadau. Kasmai.
Kasya. No. Kasmai.
Like to whom? To
Sabharyaya. Bharyena saha yaha asti sab sabharyaha. Sabharyaha. The one with wife. Bharyena. Bharya. Kshamitam. Bharyaya saha. Not bharyena. Kshamitam. Bharyaya saha. Yaha asti saha sabharyaha. The one with wife, sabharyaha, bhajaya saha, yaha asti. Etata spashtam va?
So when he says asabharyaya, it basically means the one, it was given to the person with who has with the wife.
Hmm. It means it has been given to both.
Oh.
Sabharyaha is the prathama vibhakti. तस्य चतुर्थी विभक्ति सभार्याय
सत्यं सभार्याय
सभार्या सभार्या इज शीलिंगम सो इट शुड बी
सभार्यः इज पुल्लिंगम
ओ भार्यः इज पुल्लिंगम
नो नो भार्या इज स्त्रीलिंगम ओनली बट व्हाट इज सेइंग हियर Bharyaya saha yaha asti.
Sabharyaha iti ekameva padam.
Ekameva padam atra. Am.
Asti chaturthi vibhakti sabharyaya iti.
Sabharyaya. Sabharyaya varam dadau. Astu.
The one with the wife. That's what it is.
Okay. Etata spashtam va? अनन्तरं किं ददौ सः वरं ददौ सत्यं सः वरं ददौ बट् वाट् इस् इट् ओके उच्यते अधुना कन्यारत्नं कुमारान् च त्रीन् उदारान् महायशाः एकं कन्यारत्नं वरं ददौ सु त्रीन् कुमारान् कन्यारत्नम् एकं त्रीन् कुमारान् उदारः नाम
उदारः इस् ऐ थिंक कवर्ड लास्ट क्लास
इट्स लाइक टू चैरिटी लाइक
जेनरस
अस्तु त्रीन् उदारान् सो उदारः पश्यतु अत्र कुमारः उदारान् द्वितीय बहुवचनं कुमारान् उदारान् सो त्रीन् उदारान् कुमारान् महायशाः क्षम्यतां दिस् इस् 2 3 महायशाः
वै क्रीन् इज् देयर् क्रीन् इज्
3
बहुवचनमिति
बहुवचनं तावदेव
त्रीन्
नम्बर् त्री सत्यं त्रीन् भिन्न द्वितीयाभक्ति बहुवचनं तावदेव त्रीन् उदारान् महायशाः नपुंसकलिङ्गम् अत्र पुंलिङ्गे अस्ति त्रीन् पुंलिङ्गं लैक् ऐ सेड्
कुमारः
बालान्
त्रीन् ओके we haven't done sankhyas we'll do later but for now it is three okay three udaran kumaran mahayashah mahat mahat nama great yashah yashah nama fame kirti okay mahat nama great okay a lot great yashah nama kirti fame yasya saha mahayashah तादृशान् त्रीन् उदारान् कुमारान् कन्यारत्नं च वरं ददौ वाट् इस् द वरं हि सेड् यु नो हि गेव् वरं रैट् वाट् इस् दट् वरम् एकं कन्यारत्न एकां कन्यारत्नं
त्रीणि
त्रीन् उदारान् कुमारान् ददौ
अत्र महायशः इति प्रथमविभक्तौ अस्ति कथं
नो 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 महाय तत्र प्रथमवक्तः नास्ति अत्र यशस् इति आमां
सो महायशः इस् रेफरिङ्ग् टु द मुनि
द बॉयज़ द थ्री चिल्ड्रन राइट या एंड व्हाट इज कन्यारत्नम शेखर जी
कन्यारत्नम नाम रत्नम इज अ ज्वेल राइट
राइट या
कन्याः शिष्य कन्यासु रत्नम कन्यारत्नम
Kanya is a girl, no?
Girl. A girl, a boy, yeah.
Oh, it
could be both. The best amongst the girls is Shinta.
Gem amongst the girls.
Gems among the girls.
Gem, Sanchan.
Okay, so does it refer to the to Bhima's wife here?
Kanya no.
The child.
Beautiful as a gem was blessed by Damana to Bhima.
That's what so it is.
The, he has three daughters now. No. three boys.
Oh, okay.
So the sage gave them a boon to have one daughter who's like a gem and three sons who are going to be very famous and generous.
Satcham.
Okay.
One daughter and three sons.
Hmm.
Okay.
Okay.
Of the doctor and the sons also is included here.
Daughter
as a gem, sons as very generous. That's what it is.
Okay.
Okay.
And they are all famous.
We will get to that later. Yes, Mahayashah. Yes. No, Yashah doesn't mean famous here. Again, it means lustre only. That's it.
Okay.
This Mahayashah, I am unable to understand how it is fitting here.
No, that is why you have to do the second shloka as well. So, like I said, we have to do two shlokas here. Okay. Anantara. Patatu. Damayantim. Okay. Dadau kila. So, Damayantim. Dvitiya bhakti ekavachanam. Damam. Dvitiya bhakti ekavachanam. Dantam. Damanam. Cha suvarchasam. Okay, damayantim, damam, dantam, damanam.
And so, suvarchasam is also 2.1.
Suvarchasam is also 2.1. Yes, sir. Satyam. Suvarchasam is also 2.1.
Upapannaha is filled with gunairhi is 3.3. Sarvaihi is 3.3. Bhiman.
2.3
2.3 satyam
So here, who's the doing the karyam?
Why? No. What? Who is doing? No. He. Okay. That is why. Hang on. Varam dadau. Okay. He said, you know, he gave a varam. What is the boon? One daughter and three sons. Okay. The one daughter is Damayanti. Kanya Ratnam Damayantim dadau. Treen udaran kumaran kila. Damam dantam damanam dadau. Spashtam va?
The names.
Names.
So why it's in 2.1?
Because this, he gave damam, right? Okay. Damaha is the name of the child. He gave damam. So damam 2.1.
Is this Damayanti the wife of Nala also?
Damayantim kanyaratnam ho. Kanyaratnam damayantim dadau.
Okay.
One daughter and three sons. So Damayanti is the daughter. Damam, Dantam and Damanam are the sons.
Okay.
Hmm. And Suvarchasam here. Okay. Though it is in Ekavachanam here. Suvarchasam, you have to like do anvaya of this one for every child here. Suvarchasam damayan. Suvarchasam damam dadau. Suvarchasam dantam dadau. Suvarchasam damanam dadau. Evam ritya. So there's a long pause. Is it clear?
Yeah.
Yes or no?
Kamdadau.
Kamdadau. Kanyaratnam Suvarchasam. Kanyaratnam Damayantim Dadau. Suvarchasam Damam Udaram Kumaram Dadau. Suvarchasam Udaram Kumaram Dantam Dadau. Suvarchasam damanam udaram kumaram dadau.
Got
it. Damanaha eva dadau.
Damanaha dadau. Kintu damanam api dadau.
Damanaha.
So damanam as well. They name their kid damanaha.
Oh.
So damanaha. So when he gave, so they have three sons, right? The first one's name is damaha. Dantaha. Damanaha.
So, Damayanti iti kanyarat.
Damayanti iti, yes. Spashtam va?
Damanaha kam dadau suvarchas.
Don't just say suvarchas. Suvarchaha. Suvarchaha is only one. So, okay. Here, suvarchaha is referring to these three children.
All four.
The previous sloka, Suvarchasa was actually referring to the sage Damanaha.
Yes.
Okay. In this sloka, Suvarchaha is actually the sun. The sun with great splendor or whatever. Varchas.
Damanaha Damayanti Suvarchasam Dadau. Damanaha Damam Suvarchasam Dadau.
Satyam. Satyam, tatha.
The Suvarchasam is misleading here.
Why is it misleading? Suvarchasam is an adjective to each and every son here.
It's an adjective, right? Yeah, that's right.
Yeah, it's an adjective to every son here.
Son and also daughter?
Yes.
And also daughter, yeah.
No, because we use that, we used it for Damana in the previous sloka.
Yeah. Suvarchasa here is the sun.
There also it is an adjective, but that is referring to Damanaha.
Yes. Okay. Te sarveapi sarvaihi gunaihi upapannan. Upapannaha. Te sarvaihi gunaihi upapannaha tan upapannan sarvaihi gunaihi upapannan damam dantam damanam dadau te bhimaha sarvaihi gunaihi upapannan bhiman dadau bhima parakraman punah.
So he is giving it to Bhima.
Atra pashyatu bhiman asti. What does it mean?
Wrong.
Bhimas.
Strong.
Oh, sorry. Two. Sorry.
To Bhima.
No.
To be. Strong man.
Not to Bhima. Yeah, right. Chaturthi.
Chaturthi? Dvitiya.
It is Dvitiya. Dvitiya.
Yeah, right. If he is giving it to Bhima, it will be Bhima. Yeah, right.
Yes, Bhiman.
Yeah. So Bhiman, Bhiman is referring to these three kids here. These three sons, they are Bhiman. Bhiman means powerful, that's it. Bhimaha means powerful.
Yeah. Oh, it's not the Bhima name.
No.
Oh, so how we will make a difference, Mahodaya?
So if Bhima, I say, Aham Bhimam Bhimaya Dadami.
I was thinking to lots of Bhimas. Okay.
No. Aham Bhimam Bhimaya Dadami. Bhiman Bhimaya Dadami. Bhiman means powerful. These three sons are very powerful. That is why they are Bhiman. Bhima Parakrama.
Mahodaya, Bhiman, Bhima Parakraman, Damam, Dantam, Damanam, Suvarchasam, Adadat.
Satyam, Dadao.
So these Bhiman and Bhima Parakraman are the adjectives for Damam, Dantam, Damanam.
Satyam, not just these two, even the Upapannan.
Upapannan also is another adjective.
Of course. Sarvaihi Gunaihi Upapannan, Bhiman, Bhima Parakraman, Damam, Dantam, Damanam, Suvarchasam. Suvarchasam, Damam, Dantam, Damanam, Dadau.
So Upapannan here is referring only to those three?
At Damayanti as well.
Damayanti as well, right? Yeah, that's right. Okay. Yes. Okay. So she is also Bhima Parakram.
Well, you usually know. Sarvaihi Gunaihi Upapanna, we can definitely take for Damayanti. Maha Bhima Parakrama, you know.
Only to
verifying strength.
Yeah,
that exactly. Is for those. Yes.
For male only. Yeah.
Yes. Okay. We could, there's probably nothing wrong in doing the Anvaya for Damayanti as well. But considering, you know, how she's described in the later part of the story, I would rather, you know, have them have these adjectives only for the kids. For the three sons.
So this is not regarding the shloka. Is this Damayanti the wife of Nala?
No.
Yes,
I don't.
Yes,
so.
Eventually she'll be the wife of Nala. Yes.
Later.
Oh, I didn't know that Damayanti was the daughter of Bhima. I didn't know that.
Now you know. Hey, that was first number.
Is it the Bhima one amongst the Panch Pandavas? Is it the same Bhima?
No. No, different.
There
Bhima.
Are so many kings with the name of Bhima. So some other Bhima. It is not the Panchapandav Bhima.
No.
Yeah, I was thinking it was Panchapandav Bhima only so long.
No. Okay, so we have to do this. I want to do this look real fast. So can someone please?
Damayanti tu rupena tejasa yashasa kshiya hai.
Shriya.
Oh, Shriya. Okay, Shriya. Saubhagyena cha lokeshu yashah prap sumadhyama.
Yashah prap sumadhyama.
Prap sumadhyama.
Okay. Damayanti. Okay. Sarvapratamam kriyapadam kutra syatra.
Prapa
nama?
Prapnoti.
Receive.
Prapnoti. Uttam. Lit. Prapa.
Prapa.
Okay. Sa kim prapa? Ka prapa? Sarvapratamam. Sa. Ka prapa?
Rupi.
Damayanti.
Ka prapa?
Damayanti.
Damayanti
prapa. Damayanti prapa.
Damayanti prapa. Katham bhuta damayanti prapa?
Upena.
Katham bhuta kidrushi damayanti prapa?
Yeah.
Rupena tejasa.
Na. Kidrushi. What is the adjective for damayanti here?
Tejasa.
Sober. Sorry, no. Not
Sumadhyama.
Sumadhyama. Right. Okay. Sumadhyama.
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 Sumadhyama. Sumadhyama. Sumadhyama. Sumadhyama. Sumadhyama. Sumadhyama. Sumadhyama. Sumadhyama. Slim waist.
Limbic. Okay.
Krusha.
Krusha. No. Krusha means thin. You know, her waist is very thin. Iti abhatra.
Oh, okay.
Sahardhatra. Sumadhyama. Okay. This is a very, very, very widely used adjective.
So why can't Rupena Tejasa is also referring to the Tejasa?
No. How? Katham? Okay, ekam sham. Damayanti Sumadhyama Prapa. Sa kim prapnoti? Athava kim prapnotu Yashaha. Sa kirtim prapnot. Okay? Katham prapnot sa kirtihi? Kikirtim. Damayanti Sumadhyama Yashaha. Katham prapnot Rupena Tejasa
Yashasa
Shriya
Saubhagya
Kutra prapnot Lokeshu. Lokeshu nama Trilokeshu iti artaha. We have Bahuvachanam here. So all the three lokas. Lokeshu Yashaha Prapa.
How Yashaha became 2.1 Mahodaya?
Yashast Sakaranta Padamasti.
Okay.
It's just 2.1 Atra. Astu Yashaha Prapa Katham Rupena. Because of her Rupam. Because of her Tejaha. Because of her what is this? Reputation. Shri Namatra wealth reputation iti chintetum shakyate. Saubhagyaha. Saubhagyena. Yashaha prapa. Spashtam va?
Spashtam mahodaya.
So Yashaha is applying to the father?
Kimho. Damayanti. Damayanti is the one that got this. Damayanti prapa.
Yashasa on that first line is about Damayanti, and that is like a akaram. I thought that was for the female and Yashaha.
No. We discussed this a long time ago. Okay. Just because it is akaram, that doesn't mean it's a sreelinga padam. Yashasa is the tritiya bhakti. Like bhavat becomes bhavata, tritiya ekavachanam. Yashas becomes yashasa. Tejas becomes tejasa. It is not akaram, the sreelinga padam. We discussed this somewhere here as well.
Halanta.
Halanta Padesh, yes, we discussed.
Yeah,
we discussed this here as well in the second sloka. When we're talking about Nala here, Tejasa Uparyupari, Sarvesham Uparyupari, Adityaha Iva, Atishtat. Tejasa here. Because of his splendor, it is Uktam, Luster is Uktam, Tathai Vatrapi.
Manasa Satyam.
Tathai Vatrapi. Tejasa, Shriya, Yashasa, Sa Prapa. Sa Sumadhyama Prapa. Saubhagya nama kahardaha? Saubhagya nama fortune iti ardaha gila. Good fortune iti ardaha. Saubhagena. Rupam tu spashtam eva. Spashtam va? I am shlokaha?
Spashtam.
Spashtam adhya.
Tarhi atra samapayama adhya.